thanks to my dear friend Mr. Les Morgan that I am going to chant the 1000 names of Lord Shiva as in the Anushasan Parvan of the Mahabharata. In fact, these 1000 names of Lord Shiva, Shiva Sahasranama, have at least 8 versions as far as I am aware, and all these 8 versions of this Shiva Sahasranama have already been brought in one volume, and of course I had the privilege of working on it, and it has been published by Naga Publishers, Delhi, and the title is Shiva Sahasranamashtakam. Today I am going to chant mainly the Shiva Sahasranama as found in the Anushasana Parvan of the Mahabharata. This Sahasranama itself claims that it is Tava Raja, it is monarch of all hymns, all prayers. And it is told by Lord Sri Krishna. First of all, Yudhishthira asks Bhishma Pitamaha, who is lying on the bed of arrows in Kurukshetra, he asks him to recite Shiva Sahasranama, but Bhishma Pitamaha directs him to, refers him to Lord Sri Krishna. And so this version of the Shiva Sahasranama is recited by Sri Krishna to Yudhishthira, as earlier chanted by Upamanyu, one of the devotees of Lord Shiva, who was in search for milk, and his mother, while he was a child, his mother told him that if you want to have milk, you have to get it from Lord Shiva. So that boy, Upamanyu, became a devotee of Lord Shiva, and he conducted a very, very hard austerities. And Lord Shiva also tested him as he appeared before him riding on an elephant, taking the form of Lord Indra. So he told him, Lord Shiva, in the garb of Indra, he asked him to, whatever he wanted, he will fulfill all his wishes. But then he replied to him that if at all I am to get anything, I should get it from Lord Shiva alone, not from anybody else. If Lord Shiva gives me or wants me to become a tree, I will become a tree. But I don't want to seek any favor from anybody else. So deep was his devotion to Lord Shiva. So this Shiva Sahasranama, as earlier chanted by Upamanyu and as presented by Lord Sri Krishna to Yudhishthira in Kurukshetra, is now being presented by me, and I am really grateful to Les Morgan ji for giving me this opportunity of chanting this Shiva Sahasranama. Om Shri Vasudeva Uvacha. ततस्सप्रयतो भूत्वा ममतात युधिष्ठिर प्राञ्जलि प्राह विप्रर्षिर् नाम संग्रहमादितः। उपमन्युरुवाच ब्रह्म प्रोक्तैर् ऋषि प्रोक्तैर् वेद वेदांग संभवै सर्वलोकेषु विख्यातम् स्तुत्यं स्तोष्यामि नामभिः। महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मनाम्। यथोक्तैः साधुभिख्यातैर्मुनिभिस्तत्त्वदर्शिभिः प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः सत्यैस्तत्परमं ब्रह्म ब्रह्म प्रोक्तं सनातनम्। वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम्। तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् न शक्यं विस्तरात् कृत्स्नं वक्तुं सर्वस्य केनचित्। युक्तेनापि विभूतीनाम् अपि वर्षशतैरपि यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्नेन माधव। किन्तु देवस्य महतः संक्षिप्तार्थपदाक्षरं शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः। अप्राप्य तु ततोऽनुज्ञां न शक्यस्तो तुमीश्वरः। यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया अनादिनिधनस्याहं जगद्योनिर्महात्मनः। नाम्नां कञ्चित् समुद्देशं वक्ष्याम्यव्यक्तयोनिन वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः। शृणुनाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना दशनामसहस्राणि यान्याह प्रपितामह तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् गिरेस्सारं यथा हेम पुष्पहारं यथा मधु घृतात्सारं यथा मण्डत् तथैतत्सारमुद्धृतम्। सर्वपापापहमिदं चतुर्वेदसमन्वितं प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना। माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च नाश्रद्दधानरूपाय नास्तिकायाजितात्मने। यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् सकृष्णनरकं याति सह पूर्वै सहात्मजै। इदं ध्यानमिदं योगम् इदं ध्येयमनुत्तमम् इदं जप्यमिदं ज्ञानम् रहस्यमिदमुत्तमम्। यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिं पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम्। इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत्। तदा प्रभृति चैवायम् ईश्वरस्य महात्मनः स्तवराज इति ख्यातो जगत्यमरपूजितः। ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः यतस्तण्डिपुरा प्राप तेन तण्डिकृतोऽभवत्। स्वर्गाच्चैवात्र भूर्लोकम् तण्डिना ह्यवतारितः सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवं ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परं तेजसामपि यत्तेज तपसामपि यत्तप शान्तानामपि यःशान्तो द्युतीनामपि या द्युतिः दान्तानामपि यो दान्तो धीमतामपि या च धी देवानामपि यो देव ऋषीणामपि यस्त्रिषि यज्ञानामपि यो यज्ञ शिवानामपि यः शिव रुद्राणामपि यो रुद्र प्रभा प्रभवतामपि योगिनामपि यो योगी कारणानां च कारणं यतो लोका संभवन्ति न भवन्ति यत पुनः सर्वभूतात्मभूतस्य हरस्यामित तेजस अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे शृणु अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे शृणु यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ॐ नौ दि सहस्रनाम स्टार्ट्स ॐ स्थिर स्थानु प्रभुर्भीम प्रवरो वरदो वर सर्वात्मा सर्वविख्यात सर्वसर्वकरो भव जटी चर्मी शिखंडी च सर्वांगः सर्वभावन हरश्च हरिणाक्षश्च सर्वभूतहर प्रभु प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुव श्मशानवासी भगवान् खचरो गोचरोर्दनः अविवाद्यो महाकर्मा तपस्वी भूतभावन उन्मत्तवेषप्रच्छन्न सर्वलोकप्रजापतिः महारूपो महाकायो वृषरूपो महायशा महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः पवित्रं च महांश्चैव नियमो नियमाश्रितः सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः सहस्राक्षो विशालाक्ष सोमो नक्षत्रसाधकः चन्द्रसूर्यशनिकेतुर्ग्रहो ग्रहपतिर्वर अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणो नघः महातपा घोरतपा अदीनो दीनसाधकः संवत्सरकरो मन्त्र प्रमाणं परमं तपः योगी योज्यो महाबीजो महारेता महाबल सुवर्णरेता सर्वज्ञ सुबीजो बीजवाहनः दशबाहुस्त्वनिमिषो नीलकण्ठ उमापति विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः गणकर्ता गणपतिर्दिग्वासा काम एव च मन्त्रवित् परमो मन्त्र सर्वभावकरो हरः कमण्डलुधरो धन्वी बाणहस्तः कपालवान् असनी शतग्नी खड्गी पट्टिषी चायुधी महान् स्रुवहस्तस्सुरूपश्च तेजस्तेजस्करो निधिः उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्थलः त्रिजटी चीरवासाश्च रुद्रसेनापतिर्विभु अहश्चरो नक्तञ्चर तिग्ममन्नुः सुवर्चसः गजः दैत्यः कालो लोकधाता गुणाकरः सिंहसार्दूलरूपश्च आर्द्रचर्मांबरावृतः। कालयोगी महानाद सर्वकामश्चतुष्पथ निशाचर प्रेतचारी भूतचारी महेश्वरः। बहुभूतो बहुधर स्वर्भान्दुरमितो गति नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः। घोरो महातपः पाशो नित्यो गिरिजुहो नभः सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः। अदर्शनो धर्षणात्मा यज्ञः कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा तेजोपहारी बलः मुदितोऽर्थोजितो वरः गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः। न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभु सुतीक्ष्णदशनश्चैव महाकायो महाननः। विश्वक्सेनो हरिर्यज्ञ संयुगापीडवाहन तीक्ष्णतापश्च हर्यश्व सहाय कर्मकालवित्। विष्णुप्रसादितो यज्ञ समुद्रो वडवामुख हुताशन सहायश्च प्रशान्तात्मा हुताशन। उग्रतेजा महातेजा जन्यो विजयकालवित् ज्योतिषामयनं सिद्धि सर्वविग्रह एव च। सिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली वेणवी पणवी ताली खली कालकटङ्कटः। नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोगम प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः। विमोचनस्तुसरणो हिरण्यकवचोद्भव मेढ्रजो बलचारी च महीचारी श्रुतस्तथा। सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रह व्याजरूपो गुहावासी गुहो माली तरङ्गवित्। त्रिदशस्त्रिकालदृक्कर्म सर्वबन्धविमोचन बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः। साङ्ख्यप्रसादो दुर्वासा सर्वसाधुनिषेवित प्रस्कन्दनो विभागज्ञो तुल्यो यज्ञविभागवित्। सर्ववास सर्वचारी दुर्वासा वासवोमर हैमो हेमकरो यज्ञ सर्वधारी धरोत्तमः। लोहिताक्षो महाक्षश्च विजयाक्षो विशारद संग्रहो निग्रहकर्ता सर्पचीरनिवासनः। मुख्यो मुख्यश्च देहश्च काहलिः सर्वकामद सर्वकालप्रसादश्च सुबलो बलरूपदृक्। सर्वकामवरश्चैव सर्वदः सर्वतो मुख आकाशनिर्विरूपश्च निपातीयवशखगः। रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसि वसुवेगो महावेगो मनोवेगो निशाचरः। सर्ववासी श्रियावासी उपदेशकरोकरः मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः। पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पति उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः। वामदेवश्च वामश्च प्राग्दक्षिणश्च वामन सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः। भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्यय महासेनो विशाखश्च षष्टिभागो गवाङ्पतिः। वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च वृत्तावृत्तकरस्तालु मधुर्मधुकलोचनः वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारवित्। ईशान ईश्वरः कालो निशाचारी पिनाकवान् निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः। नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धन भगहारी निहन्ता च कालो ब्रह्मा पितामह। चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावह। बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बल इतिहासः सकल्पश्च गौतमोऽथ निशाकरः। दम्भो यदम्भो वैदम्भो वश्यो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता यनौषध। अक्षरं परमं ब्रह्म बलवच्छक्र एव च नीतिर्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः। बहुप्रसादः सुस्वप्नो दर्पणो तत्त्वमित्रजित् वेदकारो मन्त्रकारो विद्वान् समरमर्दनः। महामेघनिवासी च महाघोरो वशीकर अग्निज्वालो महाज्वालो अतिधूम्रोहुतो हवि। वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतन नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रह। स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघु उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः। कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनां महापादो महाहस्तो महाकायो महायशाः। महामूर्धा महामात्रो महानेत्रो निशालय महान्तको महाकर्णो महोष्टश्च महाहनुः। महानासो महाकम्बुर्महाग्रीवश्मशानभाक् महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः। लम्बनो लम्बितोष्ठश्च महामायप्पयोनिधि महादन्तो महादंष्ट्रो महाजिह्वो महामुखः। महानखो महारोमा महाकोशो महाजटः प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः। स्नेहनो स्नेहनश्चैव अजितश्च महामुनिः वृक्षाकारो वृक्षकेतु रनलो वायुवाहनः। कण्डलीमेरुधामा च देवाधिपतिरेव च अथर्वशीर्षः सामास्य ऋक्सहस्रामितीक्ष्णः। यजुपादभुजो गुह्य प्रकाशो जङ्गमस्तथा अमोघार्थप्रसादश्च अभिगम्यः सुदर्शनः। उपकारप्रियः सर्व कनकः काञ्चनच्छवि नाभिर्नन्दिकरो भाव पुष्करस्तपतिस्थिरः। द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तं कलिश्च कालश्च मकरः कालपूजितः। सगणो गणकारश्च भूतवाहनसारथि भस्मशयो भस्मगुप्ता भस्मभूतस्तरुर्गणः। लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लत्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः। आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः। कपिलः कपिशः शुक्लः आयुश्चैव परोपरः गन्धर्वो यदितिस्तार्क्ष्य सुविज्ञेयः सुशारदः परस्वधायुधो देवो अनुकारी सुबान्धव तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः उग्रो वंशकरो वंशो वंशनादो यनिन्दित सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलो नलः बन्धनो बन्धकर्ता च सुबन्धन विमोचन स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः बहुधा निन्दितः सर्व शङ्कर शङ्करो धन अमरेशो महादेवो विश्वदेवस्तुरारिह अहिर्बुध्न्यो निलाभश्च चेकितानो हविस्तथा अदैकपाच्च कापाली त्रिशङ्कुरजितः शिवः धन्वन्तरिर्धूमकेतु स्कन्दो वैश्रवणस्तथा धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः प्रभावः सर्वगो वायु रर्यमा सविता रवि उषङ्गुश्च विधाता च मान्धाता भूतभावनः विभुर्वर्णविभावी च सर्वकामगुणावः पद्मनाभो महागर्भ चन्द्रवक्त्रो निलो नलः बलवांश्चोपशान्तश्च पुराण पुण्यचञ्चुर् कुरुकर्ता कुरुवासी कुरुभूतो गुणौषध सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः देवदेवः सुखासक्त सदसत् सर्वरत्नवित् कैलासगिरिवासी च हिमवद्गिरिसंश्रयः कूलहारी कूलकर्ता बहुविद्यो बहुप्रद वनियो वर्धकी वृक्षो बकुलश्चन्दनश्चदः सारग्रीवो महाजत्रु रलोलश्च महौषध सिद्धार्थकारी सिद्धार्थश्छन्दो व्याकरणोत्तरः सिंहनादः सिंहदंष्ट्र सिंहगः सिंहवाहन प्रभावात्मा जगत्कालस्थालो लोकहितस्तरु सारङ्गो नवचक्राङ्ग केतुमाली सभावन भूतालयो भूतपति रहोरात्रमनिन्दितः वाहिता सर्वभूतानां निलयश्च विभुर्भव अमोघः संयतो यस्सो भोजनप्राणधारणः धृतिमान् मतिमान् दक्ष सत्कृतश्च युगाधिप गोपादिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः हिरण्यबाहुश्च तथा गुहापालप्रवेशिनां प्रकृष्टारिर्माहर्षो जितकामो जितेन्द्रियः गान्धारश्च सुवासश्च तपःशक्तो रतिर्नर महागीतो महानृत्यो यप्सरो गणसेवितः महाकेतुर्महाधातुर्नैकसानुचरश्चल आवेदनीयादेश सर्वगन्धसुखावः तोरणस्तारणो वात परिधिपतिकेचर संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः नित्यात्मसहायश्च देवासुरपतिपति युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः आषाढश्च सुषाढश्च ध्रुवोऽथारुणो हर वपुरा वर्तमानेभ्यो वसुश्रेष्ठो महापथ शिरोहारी विमर्शश्च सर्वलक्षणलक्षित अक्षश्च रथयोगी च सर्वयोगी महाबलः समाम्नायो समाम्नायस्तीर्थदेवो महारथ निर्जीवो जीवनो मन्त्र सुभाक्षो बहुकर्कशः रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् मूलं विशालो यमृतो व्यक्ता व्यक्तस्तपो निधिः आरोहणोऽधिरोहश्च शीलधारी महायशा सेनाकल्पो महाकल्पो योगो युगकरो हरिः युगरूपो महारूपो महानागहनो वध न्याय निर्वपण पाद पंडितो यचलोपमः बहुमालो महामाल शशि हर सुलोचन विस्तारो लवण कूप त्रियुग सफलोदय त्रिलोचनो विषन्नांगो मणिविद्धो जटाधर बिंदुर्विसर्ग सुमुख सर सर्वायुध सह निवेदन सुखाजात सुगंधारो महाधनु गंधपाली च भगवान उत्थान सर्वकर्मणाम मंथानो बहुलो वायु सकल सर्वलोचन तलस्ताल करस्थाली ऊर्ध्वसंहननो महान छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयक्रम मुंडो विरूपो विकृतो दंडी कुंडी विकुर्वणः हर्यक्षक्रकुभो वज्री क्षतजिह्वसहस्रपात् सहस्रमूर्धा देवेन्द्र सर्वदेवमयो गुरुः सहस्रबाहुः सर्वांग शरण्यः सर्वलोककृत् पवित्रं त्रिककुन्मन्त्र कनिष्ठः कृष्णपिङ्गलः ब्रह्मदंड विनिर्माता शतघ्नी पार्श शक्तिमान पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः गभस्तिर्ब्रह्मकृत् ब्रह्मी ब्रह्मविद् ब्राह्मणो गति अनंतरूपो नैकात्मा तिग्मतेजा स्वयं भुवः ऊर्ध्वगात्मा पशुपतिर्वातरंगा मनोजव चंदनी पद्मनालाग्र सुरभ्युत्तरणो नरः कर्णिकार महासृग्वी नीलमौलिपिनाकृत् उमापतिरुमाकान्तो जाह्नवी धृदुमाधवः वरो वराहो वरदो वरेण्यः सुमहास्वन महाप्रसादो दमन शत्रुहा श्वेतपिङ्गलः पीतात्मा परमात्मा च प्रेतात्मा प्रधानधृत् सर्वपार्श्वमुखचक्षु धर्मसाधारणो वरः चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः साद्दर्शिर्वसुरादित्यो विवस्वान् सवितामृतः व्यासः सर्गस्तु संक्षेपो विस्तरः पर्ययो नर ऋतुः संवत्सरो मासः पक्षः संख्या समापनः कला काष्ठालवा मात्रा मुहूर्ताः क्षपा क्षणा विश्वक्षेत्रं प्रजाबीजं लिंगमाद्यस्तु निर्गमः सदसद व्यक्तमव्यक्तं पितामाता पितामह स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् निर्वाणं ह्लादनश्चैव ब्रह्मलोक परागति देवासुरनिर्माता देवासुरपरायणः देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरगणाश्रयः देवासुरगणाध्यक्षो देवासुरगणाग्रणीः देवातिदेवो देवर्षिर्देवासुरवरप्रदः देवासुरेश्वरो विश्वो देवासुरमहेश्वर सर्वदेवमयो चिन्त्यो देवतात्मात्मसंभवः उद्भित्रिविक्रमो वैद्यो विरजो नीरजो मर ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः विबुधोग्रवरः सूक्ष्म सर्वदेवस्तपोमय सुयुक्तः शोभनो वज्री प्रासानां प्रभवो व्ययः गुहकान्तो निजः सर्गः पवित्रं सर्वपावन शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः अभिरामस्तुरगणो विरामः सर्वसाधन ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः स्थावराणां पतिश्चैव नियमेन्द्रियवर्धन सिद्धार्थ सिद्धभूतार्थो चिंत्य सत्यव्रत शुचि व्रतादिप परं ब्रह्म भक्तानां परमागति विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् व्रतादिप परं ब्रह्म भक्तानां परमागति विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॐ नमः शिवाय. Thus ends the Shiva Sahasranama as originally chanted by Upamanyu and as presented by Lord Sri Krishna to Yudhishthira in Kurukshetra. Yatha pradhanam bhagavan iti bhaktya stuto maya yanna brahma dayo deva vidustatvera narshaya स्तोतव्यमर्च्यं वंद्यं च कस्तुष्यति जगत्पतिं भक्त्यात्वेवं पुरस्कृत्य मया यज्ञपतिर्विभु ततो व्यनुज्ञां संप्राप्य स्तुतो मतिमताङ्वर शिवमेभिस्तुवं देवं नाम विपुष्टिवर्धनै नित्ययुक्तश्रुचिर्भक्तप्राप्नोत्यात्मानमात्मना एतद्धि परमं ब्रह्म परं ब्रह्मादिगच्छति ऋषयश्चैव देवाश्च स्तुवन्ति तेन तत्परम् स्तूयमानो महादेवस्तुष्यते नियतात्मभि भक्तानुकम्पी भगवानात्मसंस्थाकरो विभु तथैव च मनुष्येषु ये मनुष्या प्रधानत आस्तिका श्रद्धधानाश्च बहुभिर्जन्मभिस्तवैः भक्त्यायनन्निमीषानं परं देवं सनातनं कर्मणा मनसा वाचा भावेनामित तेजस सयाना जाग्रमानाश्च व्रजन्नुपविशं तथा उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवं स्तुवन्तस्तूयमानाश्च तुष्यन्ति च रमन्ति च जन्मकोटिसहस्रेषु नानासंसारयोनिषु जन्तोर्विगतपापस्य भवे भक्तिप्रजायते उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणां येन यान्ति परां सिद्धिं तद्भावगतचेतसः ये सर्वभावानुगता प्रपद्यन्ते महेश्वरं प्रपन्नवत्सलो देव संसारात्तान् समुद्धरेत् ये सर्वभावानुगता प्रपद्यन्ते महेश्वरं प्रपन्नवत्सलो देव संसारात्तान् समुद्धरेत् इव मन्ये कुर्वन्ति देवा संसारमोचनं मनुष्याणां मृते देवं नान्या शक्तिस्तपोबलम् इति तेनेन्द्रकल्पेन भगवान् सदसत्पति कृत्तिवासाचुत कृष्ण तण्डिना शुभबुद्धिना स्तवमीतं भगवतो ब्रह्मा स्वयमधारयत् गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ इदं पुण्यं पवित्रं च सर्वदा पापनाशनं योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा एवमेतत् पठन्ते य एकभक्त्या तु शङ्करं या गतिः साङ्ख्ययोगानां व्रजन्ति तां गतिं तदा स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ अब्दमेकं चरेद् भक्त प्राप्नुया दीप्सितं फलम् एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितं ब्रह्मा प्रोवाच शक्राय शक्रप्रोवाच मृत्यवे मृत्युप्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् माता तपसा प्राप्तस्तण्डिना ब्रह्म सद्मनी. தண்டி ப்ரூவாச்ச சுக்ராயோ கௌதமாய ச பார்கவ வைவஸ்வதாய மனவே கௌதம பிராஹ மாதவோ நாராயணாய சாத்தியாயோ சமாதிஷ்டாய தீமதே யமாய பிரா பகவான் சாத்யூ நாராயணோச்சுத நாச்சிகேதாய பகவானாஹ வைவஸ்வதோ யம மார்க்கண்டேயாய வார்ஷ்ணேயோ நாச்சிகேதோப்ய வாசதோ மார்க்கண்டேயான்மயா ப்ராப்தோ நியமேன ஜனார்தனோ தவாப்யஹமமித்ரக்னோ ஸ்தவங் தத்யாங் யவிஸ்ருதம் ஸ்வர்க்யமாரோக்யமாயுஷ்யம் தன்யங் வேதேன சம்மிதம் நாஸ்ய விக்னங் விகுர்வந்தி தானவா யக்ஷராட்சஸா பிசாச்சாயாதுதானா வா குய்யகா புஜகா அபி யப்பதேத சுசிப்பார்த்த ப்ரஹ்மச்சாரீ ஜிதேந்திரிய அபக்னயோகோ வர்ஷம் து சோஸ்வமேத ஃபலம் லபேத் அபக்னயோகோ வர்ஷம் து சோஸ்வமேத ஃபலம் லபேத் சோஸ்வமேத ஃபலம் லபேத். ஓம் நம சிவாய. ஓம் தத் சரிதி ஸ்ரீ மகாபாரதே சத்சாஸ்ரியாம் சங்கிதாயாம் வையாசிக்யாம் அனுசாசன பர்வணி ஸ்ரீ மகாதேவ சஹஸ்ர நாம ஸ்தோத்ரே சப்ததசோத்யாய. ஓம் நம சிவாய. வாட் ஐ ஹவ் பிரசன்டெட் ஜஸ்ட் நவ் கன்சிஸ்டட் of three parts. The first part was introduction to the Sahasranama as told by Upamanyu, and second part was the Sahasranama beginning with Sthira. Sthira means stable. Sthira also means immutable, and ending with Jagat, that is going, always moving. So Lord Shiva represents so many contradictions, and this is one of the contradictions. He is Sthira and he is Jagat. Perhaps there is no animal, there is no plant with which he is not identified in this Sahasranama. He is also equally compassionate towards gods and demons, both. He is also Devasura Guru. He also gives guidance to demons in the public interest or in the interest of the cosmic development, and both of them act on his advice. In fact, the famous churning of the ocean jointly by the gods and demons, that was also done at the instance of Lord Shiva. He had advised them, and Lord Shiva represents in fact a healthy, balanced union of those two forces. Those two forces represent, the one represents the forces of unification, the gods, Adityas. Aditi, the mother of the gods, represents non-fragmentation, unification. And Diti, the mother of Daityas, that she represents the forces of fragmentation. Both, if they are properly united, the forces of fragmentation, forces of unification. The forces of fragmentation also represent analytical aspect of the universe. That also is sometimes necessary. This is what was done by Vyasa himself. The Vedas were vast ocean, so he was able to analyze them and able to bring out the separate editions of Rigveda, Yajurveda, Samaveda and Atharvaveda. That's why he is called Vyasa, as opposed to Samasa. Samasa means unification, bringing together of many things. That also is required, and Vyasa is also required, that is the need. So Lord Shiva, in all his Sahasranamams, he represents everything. And all that is universe, he is in fact the very form of Lord Shiva, represents the cosmos, entire cosmos, full of all contradictions, full of all, whatever you may call it, full of opposites. They are very much present there. And in the end, the third part is what they call Palashruti. If you chant these 1,000 names, what would be the fruits? And how it will result? And what benefit one can draw by chanting this Sahasranama? So, thank you so much.